ಗಣಾನಾಂತ್ವಾ ಗಣಪತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತು ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿಃ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯ ತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನುರಘೋರ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಚಾಕಶೀ ಯಾಮಿಷುಂ ಗಿರಿಶಂತ ಹಸ್ತೇಭಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯ ವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂಭಯನ್ ಸರ್ವಾ ಸಯಾತು ಧಾನ್ಯಃ ಅಸೌ ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಸ್ವ ಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸತ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನ ದೃಶನ್ನದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಥೋ ಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ತೇಭ್ಯೋ ಕರಣ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನಸ್ವಮುಪಯೋರಾತ್ನಿಯೋರ್ಜ್ಯಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ವಪ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ದೇ ನಿಷೀರ್ಯ ಶಲ್ಯಾನಾಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವೇಜ್ಯಂ ಧನುಃ ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಷಂಗತಿಃ ಯಾತೆ ಹೇತಿರ್ಮೇಢುಷ್ಟಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ತ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಶ್ಯವೇ ಉಪಾಭ್ಯಾಮುತತೆ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೆ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಥೋ ಯ ಇಷುಧಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ त्रयंबकाय त्रिपुरांतकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः। सस्मिञ्जराय त्विषीमते पतीनां पतये नमो नमो। बभ्लुषाय विव्याधिनेनानां पतये नमो नमो। हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो। भवस्य हेत्यै जगतां पतये नमो नमो। रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः। सूताय हन्त्याय वनानां पतये नमो नमो। रोहिताय स्तपतये वृक्षाणां पतये नमो नमो। मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो। भुवन्तये वारिवस्कृतायौषधीनां पतये नमो नम। उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नम। कृत्सवीताय धावते सत्त्वनां पतये नमः। नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नम। ककुभाय निषङ्गिने एस्तेनानां पतये नमो नमो। निषङ्गिन इषु धिमते तस्कराणां पतये नमो नमो। वञ्चते परिवञ्चते सायूनां पतये नमो नमो। निचेरवे परिचरायारण्यानां पतये नमो नम। सृकाविभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमो। सिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम। उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नम। इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम। आतन्वानेभ्यः प्रदिदधानेभ्यश्च वो नमो नम। आयच्छद्भ्यो विसृजभ्यश्च वो नमो नमो। स्यद्भ्यो विद्यभ्यश्च वो नमो नम। आसीनेभ्य शयानेभ्यश्च वो नमो नम। स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम। तिष्ठद्भ्यो दावभ्यश्च वो नमो नम। सभाभ्यः सभापतिभ्यश्च वो नमो नमो। अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम। उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो। कृत्सेभ्यो कृत्सपतिभ्यश्च वो नमो नमो। प्रातेभ्यो प्रातपतिभ्यश्च वो नमो नमो। गणेभ्यो गणपतिभ्यश्च वो नमो नमो। विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो। महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो। रतिभ्यो रतेभ्यश्च वो नमो नमो। रतेभ्यो रतपतिभ्यश्च वो नमो नम। सेनाभ्यः सेनानिभ्यश्च वो नमो नमः। శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమః రక్షద్భ్యో రథకారేభ్యశ్చ వో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమః శుక్రద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః స్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శల్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ ప్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శివివిష్టాయ చ నమో మీడుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సమృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ శీభ్యాయ చ నమః ఊర్వ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కళ్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురతాయ చ నమః శూరాయ చ వవిందతే చ నమో వర్మిణే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః స్తీక్ష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః సోద్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః గోప్యాయ చ వత్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్త్యాయ చ కూర్యాయ చ నమః पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः श्रीकत्याय च प्रभात्याय च नम इदिन्याय च प्रपत्याय च नम केगुंशिलाय च क्षयनाय च नम कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नम स्वल्प्याय च गेह्याय च नम काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नम पागुंसव्याय च रजस्याय च नम शुष्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्ध्याय च सूर्म्याय च नम पर्ण्याय च पर्णशद्याय च नमो अगुरमानाय चाभिघ्नते च नम आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीमत्केभ्यः द्रापे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने शयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुलम् मृडानो रुद्रोदनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्यामतव रुद्रप्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभावितो वदेर्हविष्मन्तो नमसा विधेमते आलाते गोग्न उत पूरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यथा च न शर्म यच्छ द्विबर्हा सुहिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृडाजरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायो अवस्थिरा मघवद्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहोस्तव हेतयः तासामेशानो भगव पराचेना मुखाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या पेशागुं सहस्रयो जने वधन्वानि दन्मसे अस्मिन् महत्यल्लवेऽन्तरिक्षे भवा अदे नीलग्रेवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्रवर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम्बतिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वधन्वानि दन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि ये शामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशो देचेर्दशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यश्च नो द्वेष्टितम् भोजम् भेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवनाविवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुद्रो मा विशान्तकः तेनाप्यायस्व नमो रुद्राय विश्वमे मृत्युर्मे पाहि तमुष्टु हि यस्विषु सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजोयगु शिवाभिवर्षणः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवा वर्धन्तु वाङ्गिरः जुम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे देतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मायुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे ज्येष्ठम् च महाधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्भिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोश्च मे प्रसोश्च मे स्थिरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रम् च मौद्दिद्यम् च मे रयश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कूयवाश्च मेनम् च मे सुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्दाश्च मे कल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च मापश्च मे वेरुधश्च मौषधयश्च मे कृष्णपच्यम् च मे कृष्णपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वित्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च महेमश्च महितिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వష్టా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యోశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేధాభ్యశ్చ మే ధిపతిశ్చ మ ఉపాగుం సుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతిప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతు గ్రహాశ్చ మే గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదేయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదశ్చ మే ధిష్ణ్యాశ్చ మే సృజశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవనే చ మే త్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆదవనీయశ్చ మ ఆగ్నేంద్రం చ మే అభిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మేష్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరీరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామ్రశ్చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవేశ్చ మే త్రయవే చ మే దిత్యవాచ్చ మే దిత్యౌహే చ మే పంచావేశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహే చ మే పష్టవాచ్చ మే పష్టౌహే చ మ ఉక్షా చ మే వశా చ మరుషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయు యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం జ్ఞానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతా గుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏక విగుంసతిశ్చ మే त्रयो विगुंसतिश्च मे पञ्च विगुंसतिश्च मे सप्त विगुंसतिश्च मे नव विगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मे ष्टाविगुंसतिश्च मे त्वात्रिगुंसच्च मे शत्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मे ष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यस्नेयश्चान्त्यायनश्चान्त्यश्च बहुवनश्च भुवनश्चाधिपतिश्च इदा दे बहुर्मनुर्यज्ञने बृहस्पतिरुक्था मदानिषगुंसि षद्विश्वे देवासूक्तवाच पृथिवीमातर्मामायिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नो मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्चैवोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहते एतावानस्य महिमा अथोऽध्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म इद्म शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिधः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये తస్మాజ్ఞాత్ సర్వహుత రుచస్సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజస్తస్మాదజాయత తస్మాదస్వా అజాయంత ఏకే చోభయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్ పురుషం వ్యదదుః కతిధా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహో కా భూరూపాదావుచ్యేతే బ్రాహ్మణోస్య ముఖమాసేత్ బాహూరాజన్య కృతః ఊరూ తదస్య యద్వయే స్యః పద్భ్యాగుం శూద్రో అజాయత చంద్రమా మనసో జాతః చక్షో సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యాసేదంతరిక్షం శేష్ణోద్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశస్య తస్రః తమేవం విద్వానమృత ఇహ భవతి నాణ్యః పంథా అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తేహనాకం మహిమానః సచంతే యత్ర పూర్వే సాధ్యా సంతి దేవాః అద్భ్యః సంభూత పృథివ్యైరసా చ విశ్వకర్మణ సమవర్తతాధే తస్య త్వష్టా విదధద్రూపమేతే తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాద్ తమేవం విద్వానమృత ఇహ భవతి నాణ్యః పంథా విద్యతే యనాయ ప్రజాపతిశ్చరతి గర్భే అంతః అజాయమానో బహుధా విజాయతే తస్య ధీరా పరిజానంతి యోనిం మరీచీనాం పదమిచ్ఛంతి వేధసః యో దేవేభ్య ఆతపతి యో దేవానాం పురోహితః పూర్వో యో దేవేభ్యో జాతః నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మం జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే హేశ్చ తే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినవ్యాప్తం ఇష్టం మనిషాణ అముం మనిషాణ సర్వం మనిషాణ తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవీ స్వస్తిరస్తునః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ॐ शान्ति 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 ॐ प्रातरग्निं प्रातरिन्द्रगं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगं पोषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रगुं हुवेम प्रातर्जितं भगमुग्रगुं हुवेम वयं पुत्रमदितेर्यो विधर्ता आद्रश्चिद्यं मन्यमानस्तुरश्चिद्राजाचिद्यं भगं भक्षीत्याः भग प्रणेतर्भग सत्यराधो भगे मां धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणृन्वन्दस्याम उदेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्ना उतोदितामघवन् सूर्यस्य वयम् देवानागुं सुमतौ स्याम भग एव भगवागुमस्तु देवास्तेन वयम् भगवन्तः स्याम तं त्वा भगः सर्व इज्जो हवेमि स नो भग पुर एता भवेह समद्वरायोषसो नमन्त दधिक्रावे वसुजये पदाय अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाचिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवती सदमुच्यन्तु भद्राः घृतं दुहाना विश्वत प्रपीणा यूयं पात स्वस्तिभिः सदा नः यो माग्ने भागिनगुं सन्तमथा भागं चिकीर्षति अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॐ शान्ति शान्ति शान्तिः ॐ आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुत च द्विपदा निष्क्रीतोऽयम् यज्ञियम् भागमेतु राजस्पोषा यजमानस्य सन्तु ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निम् च विश्वशम्भुवमापश्च विश्वभेषजे गौरीमिमाय सलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः ॐ अग्निर्मूर्धादिवः ककुःपतिप्रथिव्या अयम् अपागुं रेतागुंसि जिन्वति स्यो ना पृथिविभवानुक्षरा निवेशने यच्छानः शर्म सप्रदाः क्षेत्रत्यपतिना भयगुं हितेनेव जयामसि गामश्वं पोषयत्नवासनो मृडातीदृशे ॐ अधिदेवता प्रत्यधिदेवता सहिताय अङ्गारकाय नमः ॐ उद्बुद्ध्यस्वाग्ने प्रतिजाग्रयेनमिष्टा पूर्ति सगुं सृजेता मयम् च पुनः कृण्वद्भ्यस्त्वा पितरम् युवानमन्वातागुंसीत्वहितन्तु मेतम् इदम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य पागुम् सुरे विष्णोरराटमसि विष्णो पृष्ठमसि विष्णो नत्रे स्तो विष्णो स्यूरसि विष्णो ध्रुवमसि वैष्णवमसि विष्णवे त्वा ॐ अधिदेवता प्रत्यधिदेवता सहिताय बुधाय नमः ॐ मृगत्पते अतियधर्यो अर्हाद्युमद्विपादिक्रतुमज्जनेषु यद्येत यच्च वसत्त प्रजात तदस्मासु त्रविनम् देहि चित्रम् इन्द्रमरुत्व इह पाहि सोमम् यताशार्याति अपि वस्तु तस्य तव प्रणीते तव शूरशर्मन्ना विवासन्ति कवयस्तु यज्ञाः ब्रह्मजज्ञानम् प्रथमम् पुरस्ताद्विषे मतः सुरुचोभेन आवह स बुद्धिया उपमा अस्य विष्ठा सदश्च यो निमदतश्च विवः ॐ अधिदेवता प्रत्यधिदेवता सहिताय बृहस्पतये नमः ॐ प्रवः शुक्राय भानवे भरद्वगुम् हव्यम् मतिम् चाग्नये सुपूतम् यौ देव्यानि मानुषा जनो गुष्यन्दर्विश्वानि विद्मना जिगाति इन्द्राणि मासु नारिषु सुपत्नीमहमश्रवम् न यस्या अपरम् च न जरसामरते पतिः इन्द्रम् वो विश्वतत्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ अधिदेवता प्रत्यधिदेवता सहिताय शुक्राय नमः ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः प्रजापतेन त्वदेतान्यन्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयग्रस्यामपतयोरयीणाम् इमम् यमप्रस्तरमाहि सीताङ्गिरो विपितृभिः संविधानः आत्वा मन्त्रा कविशस्तावहन् वेनाराजन्हविषामादयस्व ॐ अधिदेवता प्रत्यधिदेवता सहिताय शनैश्चराय नमः ॐ कयानश्चित्र आभुवधूति सदा वृधः सखा कया शतिष्ठया वृता आयङ्गौ पृश्निरक्रमे दसनन्मातरम् पुनः पितरम् च प्रयन्सुवः यत्ते देवी निररुचिरा भवन् ददामग्रीवा स्वविचत्यम् इदम् ते तद्विश्याम्यायुषो न मद्व्या तथा जीव पितुमद्वि प्रमुक्तः ॐ अधिदेवता प्रत्यधिदेवता सहिताय नाहवे नमः ॐ केतुं कृण्वन्न केतवे पेशो मर्या अपेशसे समुषड्भिरयायताः ब्रह्मा देवानाम् पदवे कवीनाम् ऋषिः विप्राणाम् महिषो मृगाणाम् श्येनो गृद्रा नागस्त्वदिर्वणा नागुम् सोम पवित्रमत्ये दिरे भन्न सचित्रचित्रम् चितयन् तमस्मे चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्र चन्द्राभिर्गृणते युवस्व ॐ अधिदेवता प्रत्यधिदेवता सखिलेभ्यः केतुभ्यो नमः ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः ॐ शान्ति शान्ति शान्तिः ॐ जातवेदसे सुनवाम सोममरादेयतो निदहाति वेदः तनः पर्षदति दुर्गानि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णाम् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु जुष्ठा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ओश्च पृथ्वी बहुला न उर्वी भवातो कायतनयाय शय्यो विश्वानि नो दुर्गः जातवेदस्सिन्धुम् न नावा दुरितादिपर्षे अग्ने अत्रिवन्मनसा गृणाणो माकम्बोद्य वितातनो नाम् कृतनाजितगुम् सहमानमुग्रमग्निगुम् हुवेम परमात्सरस्तात् तनः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अधिदुरिताद्यग्निः प्रत्नोषि कमेभ्यो अध्वरेषु सना च होतानव्यश्च तत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुश्च मयुजो निषिक्तम् तवेन्द्रविष्णोरनु सञ्चरेम नागस्य पृष्टमविसंवसानो वैष्णवीम् लोकमिहमादयन्ताम् कात्यायनाय विद्महे कन्याकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् ॐ शान्ति शान्ति शान्तिः न कर्मणा न प्रजयादनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहायाम् विभ्राजते तत्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्ता सन्न्यासयोगाद्यदयश्शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृता परिमुच्यन्ति सर्वे गर्णम् विपापम् परमेश्वभूतम् यत्पुण्डरीकम् पुरमद्य सद्यस्तम् तत्रापि लग्नम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वरप्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीलस्य यः परस्वमहेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् ज्ञानेन मार्गेण महिम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति।